रथो रथो दक्षिणाया अयोध्यैनम् देवासो अमृतासो अस्तु कृष्णादुतस्तादर्या आलिगायास्ति यत्सन्ति मानुरायक्षयाय पूर्वा विश्वस्माद्भुवनादपो धिजयन् देवाजम् बृहति सनुत्री उच्चाव्यख्यज्युपतिः पुनर्भूरोढागन् प्रथमा पूर्वभूतौ यदद्यभागम् विभजासिभ्यपुषो देविमत्यत्रा सुजाते देवो न अत्र स पितारमो नामनागसोमोचति सूर्याय गृहङ्गृहमहनाजात्यच्छा दिवे दिवे अधिना मादधाना शिषा सन्ति द्योधनासः सदा घातग्रमग्रमिद्भजते वसूना भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमाजरस्व अस्य सदध्याजो अघस्य धाता जये मतम् दक्षिणजारथेन उदीरताम् सूनृता उत्तरम् धीरुधग्नयः सुजानासो अस्तु सार्गवसो नितपसावगूढाविष्कृन्नञ्चुषसो विभातीः अपान्यतेत्यभ्या अन्यते दिविषो रूपे अहनी सञ्चरेते परीक्षितोस्तमो अन्या गुहा करद्यौ दृशासोऽसु जथारथेन सदृशीरद्य सदृशीरजस्व दीर्घम् सजन्ते वरुणस्य धाम अनमद्यास्त्रंसतम् योजनान्येकैकार्कम् परीयन्ति सद्यः ध्यानत्यन्न प्रथमस्य नाम शुक्रा कृष्णादजनिष्टस्विजीति ऋतस्य जोषा नमीनादिधामाहरहन्निष्कृतमाचरन्ति कन्येव तन्वा आसदानाङ्गेषि देवि देवमियक्षमाणम् संस्मयमानाय भतिः पुरस्तादाविर्वक्षांसि गृणे विभाति सुसङ्गासा मातृमिष्टे भजोषा विस्तन्वम् गृणे निषेकम् भद्रात्तमोषो वितरम् योच्छनदत्ते अन्या उषसो न सन्त अस्मावधीर्गोमादीर्विश्ववा राजतमाना रश्मिभिः सूर्यस्य पराचयन्ति पुनराचयन्ति भद्राणामवहमाना उषासाः ऋतस्य रश्मिमानुयच्छमाना भद्रम् भद्रम् कृतुमस्मासु धेहि उषो नो अद्य सुखभाव्योच्छास्मासुराजो भगवत्सुतस्युः